ప్రతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆనః శృణ్వన్నోతిభిః స్వేదసాదనం ప్రణో దేవీ సరస్వతే వాజేభిర్వాజినీవతే ధీనామ విత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం తచ్ఛయ్యో రావిణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిఘాతు భేషజం షన్నో అస్తు ద్విపదే షం చతుష్పదే ఓం శాంతి శాంతి శాంతిః సహస్రశీర్షా పురుషః సహస్రాక్ష సహస్రపాద్ స భూమిం విశ్వతో వృత్వా అత్యతిష్ఠద్దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం ఉతామృతత్వశేషానః జదన్యేనాతిరోహతే ఏతావానస్య మహిమా అతో జాయాదశ్చ పురుషః పాదోస్య విశ్వభూతాని త్రిపాదస్యామృతం దివి త్రిపాదూర్ధ్వ ఉదయత్పురుషః పాదోస్యేహాభవాత్పునః తతో విశ్వం యక్రామత్ సాశనానశనె అభి తస్మాద్విరాడజాయత విరాజో అధిపురుషః సజాతో అత్యరిక్షత పశ్చాద్భూమిమథో పురః యత్పురుషేణ హవిషా దేవాయజ్ఞమతన్వత వసంతో అస్యాద్వీదాజ్యం గ్రీష్మ ఇద్మ శరద్భవిః సప్తాస్యాసన్ పరిధయః త్రిసప్తః సమిధః కృతాః దేవాయజ్ఞం తన్వానాః అబధ్నన్ పురుషం పశుం తయ్యజ్ఞం బర్హిషి ప్రోక్షన్న పురుషం జాతమగ్రతః తేన దేవా అయజంత స్వాధ్యారుషయశ్చ యే తస్మాద్యజ్ఞాత్ సర్వభూతః సంభృతం వృషదాజ్యం పశోగశ్చాగశ్చక్రే వాయవ్యాన ఆరణ్యాగ్రామ్యాశ్చ యే తస్మాద్యజ్ఞాత్ సర్వభూతః రుచః సామానిదగ్నిరే ఛందాగుంసి జగ్నిరే తస్మాత్ యజుస్తస్మాదజాయత తస్మాదశ్వా అజాయంత యే కేచో భయాదతః గావోహ జగ్నిరే తస్మాత్ తస్మాజ్జాత అజావయః యత్పురుషం యదధుః కతిధా వ్యకల్పయన్ ముఖం కిమస్య కౌ బాహో కా భూరోపాదావుచ్యేతే బ్రాహ్మణోస్య ముఖమాసీత్ బాహో రాజన్యకృతః ఊరోత ततस्य यद्वैष्यः पद्यागुं शूद्रो अजायत चन्द्रमामनसो जातः चक्षुःसूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासेदन्तरिक्षम् शीर्ष्णोद्योस्समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वान्नमृद इह भवते नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्यः सम्बोध पृथिव्यैरसा च विश्वकर्मणः समवर्तताधे तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वान्नमृत इह भवते नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीणाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मणे ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदद्ब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीष्यते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्यो राणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शम् चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधेतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो कामयत प्रजा सृजेयेते नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खम् वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् रुद्र जायते नारायणात् इन्द्र जायते नारायणात् प्रजापतय प्रजायन्ते नारायणात् द्वादशादित्या रुद्रावसवः सर्वाणि च छन्दागुंसे नारायणात् देवसमुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलेयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्यावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वं यद्भूतं यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातच्छुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नव इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येते अनपब्रुवः सर्वमायुरेते विन्दते प्राजापत्यगुम्रायस्पोषम् गौपत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्म पुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति ताने कथा समभरत्तदेतदोमिति यमुक्तामुच्यते योगे जन्म संसारबन्धना ॐ नमो नारायण एति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यते तदिदम् परम् पुण्डरेकम् विज्ञानधनम् तस्मात् तदिदावन्मात्रम् ब्रह्मण्यो देवके पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्मो एतदथर्वशिरो यो धीते प्रातरधेयानो रात्रिकृतम् पापम् नाशयते सायमधेयानो दिवसकृतम् पापम् नाशयते माध्यन्दिनमादित्याभिमुखो धेयान पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महे महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिना भवन्तु समस्तलोकाः सुखिना भवन्तु समस्तलोकाः सुखिना भवन्तु ॐ शान्ति शान्ति शान्तिः।